अथ सरस्वती अष्टकम्
शुद्धस्फटिकसङ्काशाम् जटामकुटधारिणीम् शुक्लाम्बरधरामम्बाम् वन्दे देवीम् सरस्वतीम् शुभ्राम् बोरुकमध्यस्ताम् शुभ्राभरणभूषिताम् शुभ्राम् स्मेरमुखाम् भोजाम् वन्दे देवीम् सरस्वतीम् अभयम् वरदम् चैव पुस्तकम् चाक्षमालिकाम् दधानाम् नित्यशुद्धाङ्गीम् वन्दे देवीम् सरस्वतीम् पराम् वाचम् च पश्यन्तीम् विमलाम् वैखरीम् तथा वर्णरूपामणिर्वर्ण्याम् वन्दे देवीम् सरस्वतीम् वाच्यात्मिकाम् वामदूतिम् वाच्याम् वाक्यार्थबोधिनीम् श्रोत्रभूताम् श्रुतिश्राव्याम् वन्दे देवीम् सरस्वतीम् इन्दुकुन्दतुषाराभाम् इन्दीवरदलेक्षणाम् बिन्दुनादमयीम् विद्याम् वन्दे देवीम् सरस्वतीम् विद्यारूपामविद्यारीम् विश्वेषाम् विदुषाम् प्रियाम् विद्याप्रकाशिनीमाद्याम् वन्दे देवीम् सरस्वतीम् सर्वजन्तुशरीरस्थाम् सर्वजन्तुविवर्जिताम् जननीम् सर्वजन्तूनाम् वन्दे देवीम् सरस्वतीम् विद्यारम्भेषु ये नित्यम् नराः सारस्वताष्टकम् पठन्ति भक्तितस्तेषाम् भवेत् प्रीता सरस्वती।